पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे
संस्कृतमातरम्
संस्कृतस्य
संस्कृतस्य प्रसाराय
नैजं
वेदं
सर्वं प्रणम्यहं संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम् कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम् वन्दे संस्कृतमातरम् नमस्कारः भोजचम्प्वां वयं हनुमद् लङ्कादहन प्रसङ्गे स्मः। तत्र गतवर्गे वयं हनुमता यदा लङ्का दग्धा तदा भूम्या या उत्थिता तस्याः वर्तनं वयं दृष्टवन्तः, तस्य एव पुनस्मारणं कुर्वन्तः अग्रे सरामः। तत्र कविः वदति, भूम्या यदा उपरि क्रमेण तदा कविः तद् उत्प्रेक्ष्य वदति, उत्प्रेक्षा तत्र स्टाण्डर्ड् आफ् कम्पेरिसन् इति न भवति। यथा उपमा मध्ये रूपकमध्ये प्रसिद्धवस्तु एव उपमानरूपेण भवति, उदाहरणार्थं मुखं चेत् चन्द्रः, अनन्तरं कमलं कमलं चन्द्रः, आकाशः मेघः, एतत् सर्वं प्रसिद्ध उपमानानि भवन्ति एतानि। किन्तु उत्प्रेक्षा मध्ये तथा न भवति, कवेः एव तद् तत्र कल्पना अधिका भवति, यद् कविः उत्प्रेक्ष्य वदति, उत्प्रेक्षणम् ईक्षणम् इति तस्य प्र इति उपसर्गद्वयपूर्वक ईक्ष धातोः उत्प्रेक्षणं। तथैव अत्र काचित् उत्प्रेक्षा अस्ति, कथम् इत्युक्ते कविः दिक् कान्ता इति दिशः सन्ति किल, दिशाम् अङ्गना कन्या, दिक्कन्यामेव एक मूर्तरूपं मत्वा यदा यदा एषा धूम्या उत्थिता भवति, धूमसंहतिः उत्थितः भवति, तदा तदा दिगङ्गनायाः तत् अङ्गे कदाचित् आभरणं, कदाचित् वस्त्रं, कदाचित् लेपनं, कदाचित् नेत्रयोः कज्जलम् इति तद् उत्प्रेक्षते। तथैव आदौ नीलांशुकश्रीः इति यः श्लोकः अस्ति तद् एतम् अर्थमेव सूचयति। अस्य अर्थः सामान्य अर्थः अस्ति, दशमुखनगरी दाहसम्भूतधूम्या, दशमुखनगरी रावणस्य नगर्याः दाहः दहनं यद् अभवत् ततः तद्दहनात् सम्भूता धूम्या, या धूम्या आगता निर्गता उपरि गता, सा धूम्या आदौ प्रथमतया नीलांशुकश्रीः दिक्कन्यायाः नीलवस्त्रविशेषम् इति भवति इति दृश्यते। पुनः जघनकुचकटीकण्ठनेत्रेषु कण्ठप्रदेशे मेखला इव दृश्यते, पुनः लेपनम् इव दृश्यते चन्दनस्य, पुनः कण्ठप्रदेशे तद् नीलोत्पलहारः इव दृश्यते, पुनः नेत्रेषु कज्जलम् इव दृश्यते इति नेत्राञ्जनम् इव दृश्यते इति कविः तद् वर्णयति। ततोपि अग्रे अग्रिमश्लोके लङ्काजनानां परिदेवनं शोकविलापः, कारणं कस्यचित् पुत्रः हतः, कस्यचित् पितरौ, कस्यचित् बन्धुः, कस्यचित् मित्रं, पुनः गृहं दग्धं, जनाः बन्धुजनाः कुत्र इति न दृश्यन्ते, अतः एकैकः अपि विलपति. किमिति उक्त्वा विलपति? हा तात, हा जननी, हा सुत, हा सहाय, हा पौत्र, हा प्रियसखी, क्वनु हा हतोऽस्मि, अहमपि हतो, हतप्रायः, इदानीं ममपि कदा मृत्युः, कस्मिन्नपि क्षणे भवितुमर्हति इत्यादि पौरपरिदेवनभारवाग्भिः. परिदेवनं नाम विलापः, पौरजनानां पुरजनानां परिदेवनस्य भारेण, भारयुक्तवचनैः लङ्कापुरी आपूरि, लङ्कापुरी पूरिता अभवत्. आपूरि इत्युक्ते पूर्यते इत्यस्य कर्मणि लुङ् प्रयोगः भवति. लङ्कापुरी आपूरि केन? शिखिना परीता लङ्कापुरी. शिखिना, शिखी कः? अग्निः. अग्निना परीता लङ्कापुरी. एतेषां वाग्भिः आपूरि. वाग्भिः आपूरि इति कारणेनैव कर्मणि प्रयोगः. एतेषां वाग्भिः लङ्कापुरी आपूरि. एतेषां वचनानि लङ्कापुरी, लङ्कापुरीं पूरयन्ति स्म इति भावः. अग्रिमं श्लोकं पश्यामः. तत्र इदानीं कविः वदति, यैर्वृन्दारकसुन्दरी जनमुखे इति श्लोके नीलाजनम् इव दृश्यते. अत्रापि तथैव अग्निस्फुलिङ्गाः अपि उत्थिताः भवन्ति. न केवलं कृष्णवर्णीया धूम्या, न केवलं कृष्णवर्णीयः धूमराशिः, अपि तु यदा ज्वालाः, अग्नेः ज्वालाः उपरि उद्दिशि उत्थिताः भवन्ति, तदा अग्निकणाः अपि उपरि गच्छन्ति, ऊर्ध्वदिशि गच्छन्ति. ते अग्निकणाः यदा क्रमेण उपरि गच्छन्ति, तदा एतासां दिक्कन्यानां नीराजनं कुर्वन्ति इव भाति इति वदति. आदौ नीराजनं करोति, तदनन्तरं सौदामिनी संहतिः यैः विरचिता. एते एव स्फुलिङ्गाः कदाचित् विद्युत् शोभाम् आवहन्ति. पुनः दिनद्वयं दिनत्रयम् अतीतं, तथापि एते सामान्यतया अग्निकणः, अग्निकणस्य अवस्थितिः क्षणमात्रं भवति, कञ्चित् कालं भवति, अनन्तरं झटिति तत् उपशान्तं भवति. किन्तु अत्र द्वित्रदिनानि अतीतानि, तथापि एते निर्वाणदशां न गताः. एते स्फुलिङ्गाः तथैव ज्वलन्ति. पुनः ते एव स्फुलिङ्गाः आदौ निराजनदशां प्राप्नोति, अनन्तरं विद्युत् संहतिः, विद्युत् घनविद्युत् राशिः इव दृश्यते. तदनन्तरम् एते एव स्फुलिङ्गाः ज्वालाडम्बरम् अम्बुधौ, अम्बुधौ नाम सागरे वाडवाग्नि दशां गच्छन्ति. श्लोकः इदानीम् अद्यतनं श्लोकं स्वीकुर्मः वयम्. अहं श्लोकं पठामि, कृपया पठन्तु. आदीप्यमानपवनात्मजज्वालसङ्गात्, अङ्गारशेषविभवाम् अवलोक्य लङ्काम्,
अङ्कारशेष विभवाम् अवलोक्य लङ्काम्,
योमि स्थितानि शिचराः स्वगृहाणि नूनम्,
योमि स्थितानि शिचराः स्वगृहाणि नूनम्
पयन्त इव नेत्र भवैः पयोभिः
पयन्त इव नेत्र भवैः पयोभिः
अतिशयोक्तिः अस्ति वदति जनाः परिदेवनं कुर्वन्ति किल हा तात हा सखे सर्वं गतम् इति अहमपि इदानीं मृतप्रायः अस्मि इति तादृशं तेषां गृहं दह्यमानम् अस्ति तेषां भवनानि दह्यमानानि सन्ति एते राक्षसाः कामरूपिणः कामचराः यत्र गन्तुमिच्छन्ति झटिति कामरूपम् आदाय स्वीकृत्य गन्तुमर्हन्ति अतः आकाशे अपि स्थातुं ते प्रभवन्ति वयमपि रामशरणागति प्रसङ्गे वयं शृणुमः यत् विभीषणादयः तस्य अनुचराः अपि आकाशे एव स्थिताः निरीक्षां कृतवन्तः यत् रामः तेषां कृते आश्रयं ददाति इति तथा एते राक्षसाः आकाशे एव स्थिताः अश्रूणि प्रवाहयन्ति तैः अश्रुजलैः एव स्वगृहाणि निर्वापयन्ति इव सा कदाचित् गृहं दग्धं चेत् अग्निशमनकयन्त्रं तद् फायर् एक्स्टिङ्ग्विशर् आगच्छति ते उन्नते प्रदेशात् एव उपरि स्थानात् एव जलं पातयन्ति किल वेगेन तेन अग्निः शाम्यति तथा एते अश्रुप्रवाहद्वारा गृहे जातम् अग्निम् उपशान्तुं प्रयत्नं कुर्वन्ति शमयितुं प्रयत्नं कुर्वन्ति अत्र पदच्छेदं पश्यामः आदीप्यमानपवनात्मजवालसङ्गात् अङ्गारशेषविभवाम् अवलोक्य लङ्काम् अव्योम्नि स्थिताः निशिचराः स्वगृहाणि नूनं निर्वापयन्तः इव नेत्रभवैः पयोभिः अत्र पदच्छेदे एव पश्यामः चेत् वयं विशेषणपदानि विशेष्यविशेषणभावं द्रष्टुं शक्नुमः अङ्गारशेषविभवां लङ्काम् अत्र लङ्कां विशेष्यपदम् अङ्गारशेषविभवां विशेषणपदं तथैव स्थिताः निशिचराः पुनः नेत्रभवैः पयोभिः पयोभिः इति विशेष्यं नेत्रभवैः इति विशेषणम् इदानीं प्रतिपदार्थं पश्यामः आदीप्यमानपवनात्मजवालसङ्घात् बालः नाम पुच्छं दीपायितस्य हनुमत् पुच्छस्य सम्पर्कात् सङ्गः सम्पर्कः संसर्गः इति तस्मात् हनुमतः पुच्छस्य सम्पर्कात् अङ्गारशेषविभवां लङ्कानगरी नगर्याः वैभवं सर्वे जानीमः ऐश्वर्यपूर्णं तत् नगरं तादृशी लङ्का इदानीं दह्यमाना अस्ति तर्हि तस्याः विभवः नाम विभूतिः ऐश्वर्यं सम्पत् यस्याः नगर्याः प्रायः सर्वा अपि सम्पत् भस्मीभूता तादृशी लङ्का इति भावः यस्याः लङ्कायाः सकलविभवः सकलमैश्वर्यं दग्धम् अतः या भस्मशेषा जाता भस्म एव अवशिष्टम् अन्यत् किमपि नास्ति तत्र यस्यां लङ्कायां महती सम्पदासीत् तत्र इदानीं भस्म एव सर्वत्र दृश्यते तादृशीं लङ्काम् अवलोक्य वीक्ष्य दृष्ट्वा लङ्कां लङ्कापुरीं व्योम्नि स्थिताः आकाशे स्थिताः के निशिचराः राक्षसाः स्वगृहाणि स्वस्वभवनानि नूनं निर्वापयन्तः इव स्वगृहाणि प्रशमयन्तः इव शमयन्ति इत्युक्ते तस्य अग्नेः निर्वापणं कुर्वन्ति केन निर्वापयन्ति नेत्रभवैः पयोभिः पयः नाम जलं पयः नाम क्षीरमपि भवति सन्दर्भानुगुणम् अत्र जलम्। सामान्यतया जनाः जलेन अग्निं शमयन्ति, किन्तु ते अश्रुभिः एव स्वगृहस्थगृहे जायमानम् अग्निं शमयन्ति इति अत्र अतिशयोक्त्या वर्णयति कविः। अत्र क्रियापदं साक्षात् नास्ति, निर्वापयन्तः इव इति शत्रुप्रयोगः। तर्हि क्रियापदं किमस्ति इत्युक्ते निर्वापयन्तः इव अलक्ष्यन्त तथा दृश्यन्ते इति भावः। के तथा दृश्यन्ते? निशिचराः। किं कुर्वन्तः इव? निर्वापयन्तः इव। कानि निर्वापयन्तः? स्वगृहाणि एव, दग्धानि स्वगृहाणि। कैः निर्वापयन्तः? पयोभिः। कीदृशैः पयोभिः? नेत्रभवैः। नेत्रे भवं, नेत्रभवं, नेत्रे जायते इति भावः। कीदृशाः निशिचराः? स्थिताः। कुत्र स्थिताः? व्योम्नि, व्योमन् शब्दः, नामन्निव नकारान्त नपुंसकलिङ्गशब्दः व्योम्नि सप्तमी बहुवचनम्। किं कृत्वा ते व्योम्नि स्थिताः? आलोक्य दृष्ट्वा। काम् आलोक्य? लङ्काम्। कीदृशीं लङ्काम् आलोक्य? अङ्गारशेषविभवां लङ्कां, या लङ्का अङ्गारशेषा जाता, भस्मशेषा जाता। तस्मात् हेतोः, केन कारणेन अङ्गारशेषविभवा जाता एषा लङ्का इत्युक्ते आदीप्यमानपवनात्मजज्वालसङ्गात्। आञ्जनेयस्य आदीप्यमानपुच्छस्य सम्पर्कात् अङ्गारशेषा जाता। अन्वयः आदीप्यमानपवनात्मजज्वालसङ्गात् अङ्गारशेषविभवां लङ्काम् आलोक्य निशिचराः नूनं व्योम्निस्थिताः नेत्रभवैः पयोभिः दह्यमानानि स्वगृहाणि निर्वापयन्तः इव अलक्ष्यन्त। दह्यमानानि अलक्ष्यन्त इति पदद्वयम् अध्याहारेण अस्माकम् अवगमनाय अत्र स्वीकृतमस्ति। अस्य भावार्थः एवमस्ति, यथा कश्चन अग्निना प्रदीप्तं स्वगृहं दूरस्थात् उच्चदेशात् जलपातनेन शमयति, तथा लङ्कायां दह्यमानायां सत्यां, अत्र सप्तमी प्रयोगः, लङ्कायां दह्यमानायां सत्यां राक्षसाः आकाशस्थाः एव अग्नितापभयात्, अग्नेः बहु समीपे भवन्ति चेत् तेषामपि दहनं भवति इति भीत्या ते दूरे आकाशे स्थिताः। ते अश्रुपातद्वारा स्वस्वगृहतः उत्थिताः वह्निज्वालाः शमयन्तः इव प्रतीयन्ते। अङ्गारशेषविभवा इति कीदृशं पदम् इति तस्य व्याकरणविशेषं मात्रं पश्यामः, अन्यत् सर्वं सामान्यमेव अस्ति। अङ्गारः एव शेषः यस्य, कस्य इत्युक्ते विभवः, यस्य विभवस्य अङ्गारः एव शेषः, तादृशः विभवः कः? अङ्गारशेषविभवः। तर्हि अङ्गारशेषः विभवः यस्याः सा लङ्का अङ्गारशेषविभवा लङ्का। विभवाः इति अपि स्वीकर्तुं शक्यते, ऐश्वर्यम् इति एकवचने अपि भवितुम् अर्हति। यथा ऐश्वर्यम् इति एकवचनेन कथ्यते तथा अत्र विभवः विशेषेण भूतिः, अत्र सम्पत् इति एकवचने अपि वयं कथयितुं यथा शक्नुमः तथा अत्र विभवः ऐश्वर्यं सम्पत् इति एकवचने अपि वक्तुं शक्नुमः, बहुवचने अपि उभयमपि भवितुम् अर्हति।
अस्तु भगिनि,
अत्र उत्प्रेक्षा, अत्रापि उत्प्रेक्षा अलङ्कारः द्वितीयम् अग्रिमं श्लोकं पश्यामः. एतद् यथा याकुण्डेन्दुश्लोकं पठामः तथा शार्दूलविक्रीडितम् चक्रे शक्रजिताज्ञयारणमुखे,
चक्रे शक्रजिताज्ञया प्रणमुखे,
यत्कर्म रक्षो गणः,
यत्कर्म रक्षो गणः,
तत्कर्तुं क्षणदा च रक्षिति भुजा,
तत्कर्तुं क्षणदा च रक्षिति भुजा,
तोऽप्यशक्तो भवेत्,
युक्तोऽप्यशक्तो भवेत्,
तार्चिश्च हनुमता परिचितः,
सप्तार्चिश्च हनुमता परिचितो,
लङ्काम् अधाक्षीद्यथा,
लङ्काम् अधाक्षीद्यथा,
तत्पित्रा मरुतायुतोऽपि न तथा,
तत्पित्रा मरुतायुतोऽपि न तया,
तथा दाहक्रियायां पटुः,
दाहक्रियायां पटुः.
अत्र कविः वदति द्वौ पुत्रौ स्तः, द्वौ अपि पुत्रौ पितुरपेक्षया अपि समर्थौ. कौ द्वौ पुत्रौ भवितुम् अर्हतः? रावणपुत्रः इन्द्रजित्, पवनपुत्रः हनुमान् इति. प्रथमं रावणपुत्रः पुत्रस्य इन्द्रजितः विषये वदति, अनन्तरं पवनपुत्र हनुमतः विषये वदति. प्रथमपङ्क्तिद्वये इन्द्रजित् विषयः, द्वितीयपङ्क्तिद्वये हनुमतः विषयः. इन्द्रजित् स्वपितुः अपेक्षया अपि समर्थः इति कथं वदति इत्युक्ते, इन्द्रजित् रणभूम्यामपि न गच्छति इति चिन्तयतु. परोक्षे दूरे स्थित्वा आदेशद्वारा एव सेनायाः सञ्चालनं करोति चेदपि, करोति इति चिन्तयतु. तदपेक्षया रावणः साक्षात् रणभूम्यां सैनिकैः सह युद्धं करोति चेदपि, इन्द्रजिता सञ्चाल्यमाना सेना इतोपि सम्यक् समर्थतया युद्धं करोति इति वदति. इन्द्रजितः प्रत्यक्ष तत्र उपस्थितिः न भवति चेदपि, तेन सञ्चालिता सेना समर्थतया युद्धं करोति. रावणस्य उपस्थित्या अपि तादृशं युद्धं ते कर्तुं न शक्नुयुः इति प्रथमं वदति. तथैव इदानीं किमर्थं तदुच्यते? तथैव इदानीं दहनप्रसङ्गः अस्ति किल, तर्हि दहने दहनं कः करोति? अग्निः करोति. उपरि अपि सैनिकाः एव युद्धं कुर्वन्ति. सैनिकानां सञ्चालनं, सैनिकानां प्रेरणाम् इन्द्रजित् दूरात् करोति, युद्धभूमितः बहिः स्थित्वा करोति. रावणः साक्षात् युद्धभूम्यां स्थितः तेषां सहायं करोति चेदपि तद् तावत् प्रशस्तकरं न भवति इति वदति किल. तथैव अग्निः हनुमता आरब्धः, पुनः हनुमान् तद् सर्वत्र विस्तारयति, प्रसारयति. तादृशः अग्निः लङ्कां यथा अदहत्, तादृशलग्निः अग्निः लङ्कां यथा अदहत्, साक्षात् हनुमत् पिता पवन, साक्षात् पवनदेवः एव अग्निना सह अग्नेः वर्धनं कारयति चेदपि, तादृशदाहक्रियायां सः समर्थः भवति वा न वा इति वक्तुं न शक्यते. इत्युक्ते उभयत्र अपि पितुः अपेक्षया पुत्रस्य सामर्थ्यस्य आधिक्यं वर्णितम्. पदच्छेदं पश्यामः. चक्रे चक्रजिदाज्ञया, चक्रजिदाज्ञया एकपदं रणमुखे यत् कर्म रक्षोगणः तत् कर्तुं षडाचरक्षितिभुजा युक्तः अपि अशक्तः भवेत्। सप्तार्चिः च हनुमता परिचितः लङ्काम् अधाक्षीत् यथा, तत् पित्रा मरुतायुतः अपि न तथा दाहक्रियायां पटुः। चक्रे इत्युक्ते अकरोत्, लिट्लकारे चक्रे अकरोत्। शक्रजित् आज्ञया रावणसुतस्य, शक्रजित् शक्रं जितवान्, इन्द्रजित् शक्रजित् इन्द्रजितः आज्ञया आदेशेन रणमुखे युद्धभूमौ यत् कर्म यादृशं कार्यं, यत् इति पदं कदाचित् यादृशम् इति भवति अथवा यस्मात् इति अपि अर्थः भवति, तत् सन्दर्भानुगुणं द्रष्टव्यं भवति। रक्षोगणः राक्षससमूहः, तत् कर्तुं तादृशं भीषणं भयङ्करं कार्यं कर्तुं क्षणदाचरक्षितिभुजायुक्तः अपि, अत्र युक्तः इत्युक्ते सहितः, यदि रावणः तैस्सह साक्षात् फिजिकलि तत्र भवति चेदपि इति अर्थः। क्षणदाचरक्षितिभुक् इत्युक्ते रावणः, क्षणदाचराः इत्युक्ते राक्षसाः, क्षणदायां चरन्ति इति क्षणदाचराः, तेषां क्षितिभुक्, क्षितिभुक् इत्युक्ते राजा चक्रवर्ती, राक्षसचक्रवर्ती, तेन युक्तः अपि तेन सहितः अपि अशक्तः भवेत्, सा सेना असमर्था स्यात्। तथैव इदानीम् इन्द्रजित् रावणयोः तुलना कृता, तथैव अग्रे एतम् उपमाम् अग्रे कथं नयामः, अग्नि अत्र, तत्र यथा सेना अत्र अग्निः, तत्र यथा हनुमान् तस्य पिता पवनः च, तत्र यथा रावण इन्द्रजितोः तुलना, अत्र हनुमतः च तस्य पितुः पवनस्य च उपमा प्रदर्शिता। हनुमता परिचितः वायुपुत्रेण प्रवर्तितः, अत्र परिचितः इत्युक्ते प्रसारितः इति अर्थः। कर्मणि प्रयोगे चि इति धातोः परि उपसर्गपूर्वकचि धातुः भवति चेत् तद् विकासयति, प्रसारयति, अधिकं करोति, एधयति इति अर्थः भवति। वायुपुत्रेण प्रवर्तितः प्रसारितः, लङ्काम् अधाक्षीत् यथा, यथा लङ्काम् अदहत्, तत् पित्रा मरुतायुतः अपि, तत् पित्रा वायुना सह विद्यमानः अपि, तथा दाहक्रियायां पटुः न भवेत्, तथा दहनकार्ये समर्थः न भवति। पटुः इत्युक्ते समर्थः, क्रीडापटुः, एवं वीणावादनपटुः, वाक्पटुः, पटुः इत्युक्ते समर्थः। अन्वयः रक्षोगणः, रक्षस्य शब्दः रक्षोगणः, शक्रजिदाज्ञया एव रणमुखे यत् कर्मचक्रे क्षणदाचरक्षितिभुजा युक्तः अपि तत् कर्तुम् अशक्तः भवेत्। यथा हनुमता परिचितः सप्तार्चिः, सप्तार्चिः नाम अग्निः, सप्तजिह्वः इति अपि तस्य नाम भवति। सप्तार्चिः लङ्काम् अधाक्षीत्, लङ्काम् अदहत्, तथा तत्पित्रा मरुतायुतः अपि दाहक्रियायां सः पटुः न स्यात्। राक्षसः, संशयः अस्ति वा? राक्षसाः परोक्षतया स्थितस्य इन्द्रजितः आदेशमात्रेण यादृशं भीकरं युद्धम् अकुर्वन्, तादृशं युद्धं रावणस्य प्रत्यक्षं रणभूम्याम् उपस्थित्या साहचर्येण च अपि कर्तुं न शक्नुयुः। एवमेव मारुतिना उद्दीपितायाः लङ्कायाः दहने वह्निः यथा समर्थः अभवत्, तत् पित्रा मरुता समिद्धः अपि स वह्निः लङ्कां तथा न अधक्ष्यत्, तथा दहनं न अकरिष्यत् इति नृ उभयत्रापि पित्रोः अपेक्षया पुत्रौ बलीयांसौ बलवत्तरौ पुत्रौ इन्द्रजित् रावणस्य अपेक्षया बलवत्तरः तथैव हनुमान् वायुपुत्रः वायुना वायोः अपेक्षया अपि बलवत्तरः इति भावः अग्रिमं श्लोकं पश्यामः तस्मिन् हनुमदरणि प्रभवे हुताशे
तस्मिन् हनुमदरणि
धिं विधाय पतिमेव समेतुमैच्छत्
धिं विधाय पतिमेव समेतुमैच्छत्
लङ्केश्वरेण रणकेलि कुतूहलेन
लङ्केश्वरेण रणकेलि कुतूहलेन
बाहोर्बलादपहृतासुरराजलक्ष्मीः
बाहोर्बलात् अपहृता सुरराजलक्ष्मीः
इदानीं कविः वदति राजलक्ष्मी सुरराजलक्ष्मी इन्द्रस्य या राजलक्ष्मी आसीत् तां सर्वमपि जितवान् किल रावणः ते सर्वान् जितवान् देवान् अपि जितवान् अतः देवाः अपि भीताः एतस्मात् देवकन्याः तेषां सम्पद् अपि एषः स्वायत्तीकृतवान् तथा युद्धे देवान् जित्वा एषः सुरराजलक्ष्मीम् अपहृत्य लङ्कायां स्थापितवान् इदानीं सा आशायाः तन्तुं पश्यति आशाकिरणं पश्यति किम् इति लङ्का दह्यमाना अस्ति पूर्वं प्रवेशमेव कर्तुं न शक्तवन्तः इदानीं कश्चन वानररूपे कश्चन आगत्य साक्षात् लङ्कामेव इमां लङ्कां दत्तवान् अस्ति एवं चेत् अवश्यं रावणस्य पतनस्य कालः आगतः इति आशा तस्याः मनसि जायते अतः सा पुनरपि स्वस्याः स्वामिना सह स्वामिनम् उपगन्तुम् ऐच्छत् स्वामिनः सकाशं गन्तुम् इष्टवती किं कृत्वा दह्यमानायामेव लङ्कायां यः अग्निः तत्र प्रवर्तते तस्मिन् अग्नौ आत्मानं पवित्रीकृत्य सा गन्तुम् इष्टवती तद् एतद् यज्ञकार्यमिव अरणिप्रभवे उत्कुताशे वयं जानीमः यज्ञस्य यदा अग्निः उत्पद्यते सः अग्निः अरणिकाष्ठैः उत्पद्यते अरणि काष्ठस्य घर्षणेन उत्पद्यते तथा तादृश अत्र यज्ञसदृश अत्र यद् कार्यं प्रचलति हनुमता प्रवर्त्यमानं कार्यं यत् प्रचलति लङ्कादहनकार्यं तस्मिन् अग्नौ आत्मानं शुद्धां कृत्वा सा सुरराजलक्ष्मी पुनरपि स्वस्वामिनम् उपगन्तुम् इष्टवती ऐच्छत् इति भावः पदच्छेदं पश्यामः तस्मिन् हनूमदरणिप्रभवे हुताशे शुद्धिं विधाय पतिम् एव समेतुमैच्छत्ये लङ्केश्वरेण रणकेलिकुतूहलेन बाहोः बलात् अपहृता सुरराजलक्ष्मीः इकारान्तस्त्रीलिङ्गः लक्ष्मीशब्दः श्रीशब्दः इति पदद्वयमपि सर्वदा विसर्गयुक्तं भवति प्रथमाविभक्त्या तस्मिन् हनूमदरणिप्रभवे हुताशे अरणिः नाम अग्निमन्थनकाष्ठम् हुताशः इत्युक्ते अग्निः हुतम् अश्नाति इति हुताशः किल यद्यद् हुतम् आहुतिं दीयते आहुतिः दीयते सर्वम् अश्नाति सः, अतः हुताशः। आञ्जनेयरूपे अरणौ समुत्पन्ने वह्नौ, आञ्जनेयः एव अत्र अरणिः इति चिन्तयतु। तेन अरणिना समुत्पन्नः यागाग्निः, अत्र सीता रक्षणम् इति पवित्रं यद् कार्यम् आरब्धं तादृशयज्ञः, अत्र यागाग्निः एव तत्र लङ्कायां दृश्यते। तादृशयागाग्नेः आरम्भः केन कृतं? यथा यागाग्नेः आरम्भः अरणिकाष्ठेन भवति, तथैव लङ्का मध्ये प्रवर्त्यमानस्य यागस्य अग्निः केन आरब्धम्? आञ्जनेयेन। अतः अरणिः इति तत्र तस्य उपमा क्रियते। तर्हि आञ्जनेयरूपे अरणौ तत्र समुत्पन्ने अग्नौ, तस्मिन् अग्नौ हुताशे शुद्धिं विदाय आत्मानं शुचिं कृत्वा विशोध्य पतिम् एव स्वस्वामिनम् इन्द्रम् एव समेतुम् एति गच्छति, समेति समीपं गच्छति, ऐच्छत् उपयातुम् इष्टवती। लङ्केश्वरेण रणकेलि कुतूहलेन बाहोः बलात् अपहृता सुरराजलक्ष्मी। लङ्केश्वरः रावणः, कीदृशः सः रावणः इत्युक्ते रणकेलि कुतूहलः। युद्धम् इत्युक्ते पूर्वतनकाले ये क्षत्रियाः योद्धारः राजानः सन्ति तेषां कृते युद्धम् इत्युक्ते क्रीडा, क्रीडां मन्यन्ते। अस्माकं एकः उपन्यासकारः अस्ति, सः बहु हास्येन वदति पूर्वतनकाले युद्धमपि बहु क्रीडामिव कुर्वन्ति स्म, 5 डे टेस्ट् मेच् इव, प्रातः दशवादने आरभ्य सूर्यास्तमनात् पूर्वं समाप्य पुनः अग्रिमदिने भवति। नगरजनाः तेन न बाध्यन्ते एव, युद्धं पृथक्, ये युद्धचिकीर्षवः युद्धम् इच्छन्ति ते युद्धं कुर्वन्तः भवन्ति, जनसामान्यजीवनं यदस्ति तद् बाधितं न भवति युद्धेन। पूर्वतनकाले तथा आसीत् इति सः वदति। अत्र तत् युद्धक्रीडायां समुत्सुकः, तस्य बहु उत्साहः भवति, कुतूहलः भवति, करणीयं युद्धं करणीयम् इति। अतः एव कतिवारं निवारितः अपि सः न निवृत्तवान् किल रावणः, रावणं शरण राम श्रीरामं शरणं गच्छतु इति उक्ते अपि सः न अङ्गीकृतवान्। अतः वा भवामि, अहं युद्धम् अवश्यं करोमि, अहं जानामि अहं पराजितः भवामि, किन्तु अहं युद्धात् भीत्या धावितः इति नाम अहं प्राप्तुं न इच्छामि, अहम् अवश्यं युद्धं करोमि। अतः युद्धक्रीडा समुत्सुकः सः रावणः। तेन रावणेन बाहोः बलात् भुजपराक्रमेण अपहृता अपनीता, ता अपनीता सुरराजलक्ष्मीः, देवलोकस्य राज्यलक्ष्मीः। अस्य अन्वयमेव पश्यामः, साक्षात् सरलमस्ति। रणकेलिकुतूहलेन लङ्केश्वरेण बाहोः बलात् अपहृता सुरराजलक्ष्मीः हनूमदरणिप्रभवे हुताशे शुद्धिं विधाय पतिमेव समेतुमैच्छत्। अस्य कः भावार्थः? पूर्वं युद्धे दुर्जेयः रावणः किल, जेतुं बहु कष्टं भवति तस्य उपरि जयं प्राप्तुं। दुर्जेयेन रावणेन पराजितस्य इन्द्रस्य सकाशात् अपहृता लङ्कायां स्थापिता आसीत् सुरराजलक्ष्मीः। हनुमता कृतं लङ्कादहनं यद्यपि भीषणं तथापि तत् अधर्मनाशननिमित्तकम् आसीत्। यथा यागाग्निः अरणितः उत्पाद्यते तथा अयम् अग्निः अपि हनुमद्रूप अरणितः जातः। तादृशे पावके, पावकः इत्युक्ते अग्निः, पावयति इति पावकः, अतः एषा अपि आत्मानं पावयितुम् इच्छति, अतः तादृशे पावके आत्मानं विशोध्य इत्युक्ते स्वयमेव अग्निपरीक्षां स्वीकृत्य संस्कृता भूत्वा स्वस्वामिनम् इन्द्रम् उपगन्तुम् ऐच्छत् सा सुरलोकलक्ष्मीः। अतः अत्र रावणस्य पराजयः निश्चितः इति ध्वनिः। अग्रिमं श्लोकं पश्यामः। वाचामिदानीं किमु विस्तरेण लङ्कापुरीं रावणबाहुगुप्ताम् कुत्स्थदूतोऽयमुपेत्य चक्रे कृतान्तदूतस्य सुखप्रवेशाम् पूर्वं वयं दृष्टवन्तः यत् साक्षात् देवलोकमेव जित्वा रावणः तान् ते दासीभूताः एतस्य एवं सति लङ्का सम्यक् सुरक्षिता अस्ति नगरी। आरम्भे यदा आञ्जनेयः लङ्काप्रवेशं करोति तदा एव सः पश्यति लङ्का कीदृशं सुरक्षितम् अस्ति सुरक्षिता अस्ति। तर्हि सः चिन्तामपि प्रकटयति कथं वा अस्माकं वानरसैनिकाः अत्र कथं प्रविशेयुः। अनन्तरमेव युद्धस्य विषयः प्रवेशदुर्लभः एव एषः देशः इति सः चिन्तयति। तथा लङ्कापुरी पूर्वं सर्वेषां कृते अपि दुर्भेद्या तस्यां नगर्यां प्रवेशप्राप्तिः एव क्लेशकरम् आसीत्। किन्तु तथा सति यमदूताः अपि तत्र प्रवेष्टुं न शक्नुवन्ति इत्युक्ते रावणस्य मरणमेव मृत्युः एव न समीपं न आगच्छति। किन्तु इदानीम् आञ्जनेयः तत् इदानीं परिवर्तितवान्। किं कृतवान्? आञ्जनेयस्य एवम् आगमनेन एवं लङ्कायाः ध्वंसनेन पुनः लङ्कायाः दहनेन सः अग्रे लङ्कायां प्रवेशं कर्तुं यमदूतानां कार्यं सरलं कृतवान्। स्वयं प्रविश्य तेषां प्रवेशाय अपि सः मार्गं कल्पितवान् इति भावः। अस्य पदच्छेदः वाचाम् इदानीं किमु विस्तरेण लङ्कापुरीं रावणबाहुगुप्तां काकुत्स्थदूतः अयम् उपेत्य चक्रे कृतान्तदूतस्य सुखप्रवेशाम्। चक्रे पुनः यथा दृष्टवन्तः लिट् लकारे अस्ति कृतवान् इति भावः इति अर्थः। प्रतिपदार्थं पश्यामः। वाचां वचसां षष्ठी बहुवचनम् इदानीम् अधुना किमु विस्तरेण प्रपञ्चनेन किमपि प्रयोजनं नास्ति इति भावः। कैमुतिकन्यायम् इति वदन्ति किल किमु इति प्रयोगः भवति चेत् अधिकविस्तरेण किं किमपि तत्र प्रयोजनं नास्ति इति अर्थः। लङ्कापुरीं रावणबाहुगुप्तां रावणस्य भुजै भुजबलेन सुरक्षितां लङ्काम् इति अर्थः। काकुत्स्थदूतः अयं काकुत्स्थः कः? श्रीरामः। काकुत्स्थस्य दूतः हनुमान् अयम् उपेत्य चक्रे उपेत्य इत्युक्ते आगत्य समीपम् आगत्य चक्रे अकरोत्। किं किं कृतवान् सः? कृतान्तदूतस्य सुखप्रवेशाम्। कृतान्तः नाम यमः यमदूतस्य यमकिङ्करस्य सुखप्रवेशाम् अकरोत्। सुकरः प्रवेशः यथा स्यात् तथा एषः मार्गं कल्पितवान्। सामान्यतया अपि लोके वयं पश्यामः प्रथमं कः पदं स्थापयति इति एव। हू विल् बेल् द केट् इति वदन्ति किल प्रथमं यः साहसं करोति अनुयायिनः बहवः स्युः लोके। किन्तु आदौ कः गच्छति? आदौ कः साहसं करोति? आञ्जनेयः तद् कृतवान्। तदनन्तरम् इदानीम् एकैकशः सर्वे अपि ये पूर्वम् आगन्तुं भीताः अथवा सङ्कोचम् अनुभवन्ति स्म, इदानीं ते सर्वे अपि प्रविशेयुः. अन्वयः: इदानीं किमु वाचां विस्तरेण, काकुत्स्थदूतः अयं रावणगुप्तां लङ्कापुरीम् उपेत्य कृतान्तदूतस्य सुखप्रवेशां चक्रे. रावणस्य पुरी लङ्का सम्यक् परिरक्षिता स्थिता. तत्र यमदूतानामपि प्रवेशः दुर्लभः आसीत्. किमु अन्येषां, यमः यत्र कुत्रापि भवतु नाम यमः तत्र प्राप्नोति एव सम्प्राप्ते सन्निहिते काले. किन्तु तादृशः यमः तस्य दूताः अपि लङ्कापुरीं प्रवेष्टुम् अशक्ताः पूर्वम्. किन्तु इदानीं हनुमान् तस्यामेव लङ्कायां तादृशं विध्वंसनं विततवान् यत् ततः परं यमकिङ्कराः निःसङ्कोचं तत्र प्रवेशं करिष्यन्ति. भावियुद्धे, इत्युक्ते आगामियुद्धे, रावणस्य पराजयः जातप्रायः, तस्य विनाशः च सन्निहितः इति अर्थः. एतेन अत्र समापयामः.
आफ्टर् टेल्लिङ्ग् सो मेनि श्लोकास् ही इस् टेल्लिङ्ग् किं विस्तरेण. ऑलरेडी सो मच विस्तर, वी डोंट अंडरस्टैंड.
धूम्यायाः एव विस्तरः षड् सप्त श्लोकेषु अस्ति, केवलं धूम्या विषये, अग्निविषये. किं विस्तरेण, सत्यम्.
किं विस्तरेण, लास्ट् वन् गद्यभाग आल्सो ही सेड् लैक् दट्. So much gadya, he said, and he said, kima vistarena, he said, in the beginning.
Sarve bhavantu sukhinah,
sarve bhavantu
sukhinah, sarve bhadrani
pashyantu,
makasi
dukhavave. ॐ शान्ति शान्ति शान्ति.